ईशा देवाय वसंत सदा पश्यन्ति सूरयाः दिविवचक्षुरातनम् तद्विप्रासो विपन्यवो जाग्रवां सत्समिन्धवे ऋषयस्तये
विचक्रमेत्रेधानि दधे पदम्